नमो सर्वेषु सांकालेषु भयेषु च एकयं पुरुषस्तस्मिन् नावती भक्ति राघव
पूज्य स्वैरामे काभो देवदेवं जगत्पतिम् एतस्त्रिगुणितं जप्त्वा युद्धे तु विजयिष्यति अस्मिन् क्षणो महाबाहो रावणं त्वं विधिष्यसि एवमुक्त्वा तदा गत्यो जगाम च यथा गतम् एतत् श्रुत्वा महातेजा नश्व शोको भवत् सदा यस्त्वा सुपरं हर्षमवाप्तवान् तिराचम्य शुचिर्भूता धनुराधाय वीर्यवान्
रावणं दृष्टात्मा
अथ रवीरवद निरीक्ष्य रामम् मुदितमनाः परमं प्रहृष्यमाणः निशिचरपति संक्षयं विदित्वा सुरगणामच्छगतो वचस्वरे